एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति देशे नूतन प्रविधिम् प्रयुज्य सुदीर्घ भूमिगत मार्गस्य निर्माणम् महत्वपूर्णम् कार्यम् वर्तते। राष्ट्रिय गौरवस्य काष्ठमण्डप तराई मधेश द्रुत मार्गस्य धेद्रे भूमिगत मार्गस्य पारेगमन कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री ओली नेपालः भूमिगत मार्गाणाम् निर्माणेन सहैव नूतन युगम् प्रविष्टोऽस्ति, अतः परम् विकास निर्माणस्य गति नावरुध्यते इति प्रतिबद्धताम् व्यक्तवान्। प्रधानमन्त्री ओली द्रुतमार्गस्य निर्माणस्य क्रमे श्रेष्ठम् व्यवधानम् समाधातुम् सर्वकार प्रतिबद्धोऽस्तीति च अगदत्। नेपाले न किमपि सम्भूतम् अस्तीति भाष्यम् निर्मीयमाणम् वर्तते इति चर्चयन् प्रधानमन्त्री ओली द्रुतमार्गस्य अन्तर्गतस्य भूमिगत मार्गस्य निर्माण कार्येण विषयोऽयम् प्रतिकृतो वर्तते। प्रधानमन्त्री ओली प्रारब्धानि कार्याणि यथासमयम् समापयितुम् पूर्वाधार विकासेन सह सम्बद्धान् मन्त्रालयस्य पदाधिकारिणः निरदिशत। तदवसरे द्रुतमार्ग निर्माणस्य कार्यम् 83-2000 विक्रम वर्षस्य चैत्रमासस्य अन्तम् यावत् सम्पादयितुम् लक्ष्यम् निर्धारितमस्ति। आयोजनेयम् 13 वर्गेषु विभज्य निर्माण कार्यम् विधीयमानम् च वर्तते इति प्रधान सेनापतिः प्रभुराम शर्मा असूचयत्। परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा बंगलादेशे सञ्चालतः आन्दोलनस्य कारणेन तत्र अवशिष्टानाम् नेपाली छात्राणाम् सम्भावितम् काठिन्यम् सुरक्षाम् च प्रति सावधानतया सक्रिय रूपेण कार्यम् विधातुम् ढाकावर्तिनम् नेपाली दूतावासम् निर्दिशति। मन्त्री डाक्टर राणा नेपाली राजदूतेन सह दूरभाषम् विधाय तत्रत्याम् पश्चात्तनावस्थाम् प्रति जिज्ञासाम् उपस्थाप्य तत्रत्यानाम् नेपालीनाम् आवश्यक सुरक्षार्थम् सहयोगार्थम् च कार्यम् कर्तुम् निरदिशत। बंगलादेशे नेपाली छात्रैसह सर्वेऽपि नेपाली नागरिकाः सुरक्षिताः सन्तीति बंगलादेशस्य कृते नेपाली राजदूतः घनश्याम भण्डारी असूचयत्। बंगलादेशे अनिश्चितकालिका निषेधाज्ञायाः घोषणा विहितास्तीत्यतः नेपाली जनान् स्वस्थाने सुरक्षिततया अवस्थातुम् अधिकाधिकम् सावधानाः भवितुम् च ढाकावर्तिना नेपाली दूतावासेन सूचनाम् प्रकाश्य सर्वे नेपालिनः अनुरुद्धाः वर्तन्ते। कर्णाली प्रदेशस्य मुख्यमन्त्रिणा यामलाल कणेलेन विश्वासस्य मतम् प्राप्तम् वर्तते। प्रदेशसभाया ह्यस्तनोपवेशे मुख्यमन्त्रिणा कणेलेन नेपाली कांग्रेस दलस्य नेकपा एमाले दलस्य च त्रयोविंशतेः प्रदेशसभा सदस्यानाम् मतानि प्राप्य द्वितीयवारम् प्रदेशसभायाम् विश्वासस्य मतम् प्राप्तमस्ति। चत्वारिंशत् सदस्यात्मिकायाम् प्रदेशसभायाम् उपस्थितेषु 37 सांसदेषु मुख्यमन्त्रिणः पक्षे 23, विपक्षे 14 मतानि च व्यक्तानि आसन्। नेपाली कांग्रेस नेकपा एमाले दलयोः नूतन सत्ता समीकरणस्य निर्माणेन सहैव माओवादी केन्द्रेण श्रावणस्य 7 दिवसे सर्वकाराय प्रदत्तस्य समर्थनस्य प्रत्यावर्तनानन्तरम् मुख्यमन्त्रिणा कणेलेन द्वितीयवारम् विश्वासस्य मतम् गृहीतम् वर्तते। सुदूर पश्चिम सर्वकारस्य मुख्यमन्त्री कमल बहादुर शाह ह्य पदगोपनीयतयो शपथम् गृहीतवान् अस्ति। ह्य प्रदेश प्रमुखस्य कार्यालये आयोजिते समारोहे प्रदेश प्रमुख नजीर मिया नवनियुक्तम् मुख्यमन्त्रिणम् शाहम् पदगोपनीयतयोः शपथम् अग्राहयत्। एवमेव नवनियुक्ताः मन्त्रिणः मेघराज खड्का, बहादुर सिंह थापा, सुरेन्द्र पाल, बीरबहादुर थापा, हिरसिंह सार्की, लक्ष्मण किशोर चौधरी च पदगोपनीयतयो शपथम् गृहीतवन्तः। प्रतिनिधि सभाया ह्यस्तनोपवेशेन गत विक्रम वर्षीयम् सैद दशरथ चन्द स्वास्थ्य विज्ञान विश्वविद्यालय विधेयकम् प्रकरणगत विमर्शनाय सम्बद्ध समितो प्रेष्यताम् इत्युक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। ह्यस्तनोपवेशे विलोपित व्यक्तिनाम् अनुसन्धान सत्यनिरूपण मेलायोगेन सम्बद्धस्य 170-2000 विक्रम वर्षस्य 42 प्रकरणस्य अनुसारेण बाधा निरसनादेश सदने प्रस्तुतो वर्तते। तत्पूर्वं ह्यस्तनोपवेशे सांसदैः देशस्य अर्थतन्त्रस्य संविधान संशोधनस्य च विषयेषु दृष्टानां समस्यानां सर्वकारस्य ध्यानमाकृष्टवन्तः आसन्। उपवेशे पूर्वार्थमन्त्री डाक्टर प्रकाश शरण महत, सांसदा ठाकुर प्रसाद गैरे, शक्तिबहादुर बस्नेत, मनिष झा, रोशन कार्की, मेटमणि चौधरी, सुशीला श्रेष्ठ, रेखा यादव, प्रेम सुवाल, चित्रबहादुर केसी, प्रभु साहस सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणं व्यदधुः। प्रतिनिधिसभायाः अपरोपवेश शैव श्रावणस्य उनत्रिंशे दिवसे मंगलवासरे दिवा एकवादने वस्ता। राष्ट्रिय सभाया ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयं तिलगंगा नेत्र विश्वविद्यालयं प्रकरणगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेष्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रिणा विद्या भट्टराई इत्यनया प्रस्तुतः प्रस्तावः सभाया सर्वसम्मत्या स्वीकृतोऽस्ति। एवमेव उपवेशे विलोपितानां व्यक्तिनाम् अन्वेषण सत्यनिरूपण मेलायोग सम्बद्धस्य एकसप्तत्युत्तर द्विसहस्रतम विक्रम वर्षीयस्य अधिनियमस्य द्वाचत्वारिंशत् तह प्रकरणस्य द्वितीयोपकरणस्य अनुसारेण बाधा निरसनादेश प्रस्तुतो वर्तते। तत्पूर्वं उपवेशे सांसदाः नेपालस्य स्वास्थ्य क्षेत्रे कार्यरतानां परिचारिकादीनां स्तरवृद्धि न सम्भूतेति उक्त्वा सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रियसभायाः अपरोपवेशः श्रावणस्य एकत्रिंशे दिवसे बृहस्पतिवासरे दिवा सपादैकवादने वस्ता। राष्ट्रपति रामचन्द्र पौडेल भासते प्रजातन्त्र स्थापनायाः पुनस्थापनायाश्च कृते अथक संघर्षं विहितवतां प्रजातन्त्र सेनानीनां राज्येन उचित सम्मानो विधेय। प्रजातन्त्रस्य कृते संघर्षं विहितवद्भिः प्रजातन्त्र सेनानीभिः सह ह्य शीतल निवासवर्तिनि राष्ट्रपति भवने सम्भूते मेलने राष्ट्रपति पौडेल त्यागस्य संघर्षस्य च सम्मानाय राज्येन उचित व्यवस्था विधातव्येति धारणां व्यक्तवान्। तदवसरे नेपाल प्रजातन्त्र सेनानी संघस्य अध्यक्षेण बालकृष्ण दाहालेन प्रजातन्त्र सेनानीनां कृते राज्येन प्रदातव्यस्य सौविध्यस्य सम्मानस्य च विषये राष्ट्रपतेः पौडेलस्य ध्यानाकर्षणं विहितम् आसीत्। राष्ट्रपति रामचन्द्र पौडेल गदति संचार जगत मर्यादित भूमिका त एव नागरिकाणां मर्यादा सम्मानस्य च रक्षणं भवति। शीतल निवासवर्तिनी राष्ट्रपति कार्यालय मीडिया काउन्सिल परिषद पदाधिकारीभिः सह सम्भूते मेलने राष्ट्रपति पौडेल एवम् अगदत् इति समाचारः।